नाम हरिणीं सुवर्ण रजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीम् अनपगामिनीम् यस्याम् हिरण्यम् विन्देयम् कामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनाद प्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्माधेवीर्जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् ताम् विहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदारा ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोति जातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः पैतु माम् देव सख कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे शुद्धिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाम् निर्नुद मे गृहात् द्वाराम् दुरादर्शाम् नित्यपुष्टाम् करिषिणीम् ईश्वरी गुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् करिषिणीम् ईश्वरी गुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् काममाकूतिम् वाचः सत्यमश्रीमहि पशूनाम् रूपमन्नस्य महि श्रीशयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनी पापसृजन्तु स्निग्धानि चिक्लीतवस मे गृहे निज देवी मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह आर्द्राम् यः करिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीम् अनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् यशचित् प्रयतो भूत्वा जुहुयापादजमन्वहम् श्रियम् पञ्चदशर्चम् च श्रीकामम् सततम् जपेत् महालक्ष्म्यै च विद्महे महाश्रियै धीमहि तन्नः श्री प्रचोदयात्।